इयम् आकाशवाणी। सम्प्रति वार्ताः श्रूयन्ताम्। प्रवाचकः ललितमोहनः तिवारी। आदौ मुख्य वार्ताः। प्रधानमन्त्रिणा श्रीनरेन्द्रमोदिना अद्य देशे आयोजिते स्वच्छता हि सेवा महाभियानस्य नेतृत्वम् अकरोत्। प्रधानमन्त्री श्रीनरेन्द्रमोदी अद्य मध्याहे तेलंगाना राज्यस्य महबूबनगरे सम्प्राप्तः। असौ तत्र पञ्चशतशताधिक त्रयोदश सहस्रकोट्यधिक रूप्यकाणां विनिर्मितानां विविध परियोजनानां आधारशिलां स्थापिताः। प्रधानमन्त्रिणा श्रीनरेन्द्रमोदिना डॉ मोहम्मद मोइजू इत्यस्मै मालदीवस्य नवनिर्वाचित राष्ट्रपतिरूपेण शुभकामनाः प्रदत्तः। अपि च भारतेन चीनस्य हांगझो इत्यत्र आयोजितायाम् अष्टमे दिवसे एशियाई क्रीडा प्रतिस्पर्धायां त्रीणि स्वर्णपदकानि द्वे रजतपदके द्वे कांस्यपदके च समेत्य षड् पदकानि अद्य विजितानि। अथ वार्ताः विस्तरेण। प्रधानमन्त्रिणा श्रीनरेन्द्रमोदिना अद्य देशे आयोजिते स्वच्छता हि सेवा महाभियानस्य नेतृत्वम् अकरोत्। सः शारीरिक स्वास्थ्य प्रशिक्षकः अंकित बयानपुरिया इत्यनेन सह स्वच्छताभियाने सम्मिलितः। श्रीमोदी अंकित बयानपुरिया सह वार्तालापे शारीरिक सौष्ठवता यथावदेव स्थापयितुं बलं प्रदत्तवान्। प्रधानमन्त्रिणा श्रीबयानपुरिया वर्येण साकं स्वच्छताभियान कार्यक्रमावधौ वार्तालापस्य चलचित्रं सामाजिकान्तर्जालपटले प्रसारितः। स्वच्छतायाः एक तारीख एक घंटा एक साथ इत्यस्य प्रधानमन्त्रिणः आह्वाने देशे जनाः स्वीकृतवन्तः। श्रीमोदिना गांधी जयन्त्योपलक्ष्ये तस्मै श्रद्धांजलिः प्रदानाय अद्य प्रातः दशवादने स्वच्छताभियानाय नागरिकान् एकं होरात्मकं श्रमदानस्य आग्रहं कृतः। प्रधानमन्त्रिणा मन की बात इति कार्यक्रमे अद्य स्वच्छताभियाने सहभागार्थं जनेभ्यः समयाकर्षितुम् आग्रहं कृतः। अस्मिन् अवसरे समग्रवर्गाणां जनाः आपण परिसर रेलमार्ग जलाशय पर्यटन पूजास्थलानां च अन्य सार्वजनिकस्थलेषु स्वच्छता कार्यक्रमेषु भागं भजितवन्तः। भारतीय जनता पार्टीति दलस्य अध्यक्षः जेपी नड्डा, केन्द्रीय मन्त्री भूपेन्द्र यादवः, धर्मेन्द्र प्रधानः, डॉ जितेन्द्र सिंहः, हरदीप सिंह पुरी, मीनाक्षी लेखी, राजीव चन्द्रशेखरः च अन्येऽपि नेतारः कार्यक्रमेऽस्मिन् भागं गृहीतवन्तः। अस्मिन् अभियाने देशस्य शहरी ग्रामीण क्षेत्रयोः चत्वारिंशत् सहस्राधिक षड्लक्षाधिक स्थलेषु श्रमदानं जातम्। प्रधानमन्त्री नरेन्द्रमोदी अद्य मध्याहने तेलंगाना राज्यस्य महबूबनगरे सम्प्राप्तः। असौ तत्र महबूबनगरे मार्ग रेल शिलातैल ईंधन प्राकृतिक वात्येंधन उच्च शिक्षा चेत्यादिषु क्षेत्रेषु पञ्चशतशताधिक त्रयोदश सहस्र कोट्यधिक रूप्यकाणां विनिर्मितानां विविध परियोजनानां आधारशिलां स्थापिताः। श्रीमोदी वीडियो इति कॉन्फ्रेंसिंग इति माध्यमेन कृष्णा स्थानकतः हैदराबादं, हैदराबादतः रायचूरं यावत् इत्यनेः मध्ये रेलयानं हरितध्वजं प्रदर्श्य प्रेषितवान्। प्रधानमन्त्री नरेन्द्रमोदी श्वः राजस्थान मध्यप्रदेशयो यात्रायै प्रयास्यति। श्रीनरेन्द्रमोदी राजस्थानस्य चित्तौड़गढ़े सप्तसहस्रकोटि रूप्यकात्मकस्य विविध विकास परियोजनानां राष्ट्राय समर्पयिष्यति। असौ निज यात्रावधौ पञ्चचत्वारिंशत शताधिक कोट्य रूप्यकात्मक विनिर्मितस्य मेहसाणा भटिंडा गुरदासपुर इति वात्येंधन नलिकातंत्रस्य लोकार्पणमपि करिष्यति। अपरतः श्रीमोदी मध्यप्रदेशस्य ग्वालियर क्षेत्रे षष्ठ्योत्तर द्विशताधिकोनविंशतिः सहस्राधिक कोट्य रूप्यकाणां विविध परियोजनानां शिलान्यासं करिष्यति। असौ तत्र दिल्ली वडोदरा इति द्रुतमार्गं राष्ट्राय समर्पयिष्यति। सममेव पञ्च विविध मार्ग परियोजनानां आधारशिलां चापि स्थापयिष्यति। राजस्थाने आगामी विधानसभा निर्वाचनाय निर्वाचनायोगेन सर्वाः सज्जाः सम्पूरिताः सन्ति। निर्वाचनायोगेन सम्पूर्णदलस्य कार्यक्रममालक्ष्य सन्तोषः प्रकटितः। अवसरेऽस्मिन् मुख्य निर्वाचनाधिकारी राजीवकुमारः युवभिः महिला मतदातृभिः च अधिकाधिकरूपेण मतदानाय प्रार्थनां विहितवान्। अद्य जयपुरे वार्ताहरैः सह वार्तालापं कुर्वन् असौ प्रोक्तवान् यत् राज्येऽस्मिन् 90,000+ जनाः प्रथमवारं नूतनमतदातारः स्वमतस्य प्रयोगं करिष्यन्ति। संस्कृतवार्तायाः संस्करणमिदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव अयं कार्यक्रमः आकाशवाण्याः अन्तर्जालपटले www.newsonair.com इत्यत्र अथ न्यूज ऑन एआईआर चल दूरभाषीय तन्त्रांशे अपि उपलब्धो भविष्यति। अद्य सैन्य प्रशिक्षण कमान इत्यस्य 33वां स्थापना दिवसः वर्तते। अवसरेऽस्मिन् सैन्य नायकः एसएस महालः सैन्य कार्मिकाणां तेषां परिवारजनानां च वर्धापितः प्रदत्ताः। ध्यास्पदं वर्तते यत् सैन्य प्रशिक्षण कमान इत्यस्य स्थापना 91वर्षस्य अक्टूबर मासस्य प्रथमे दिनांके मध्यप्रदेशस्य महू नगरे संजातमासीत्। वर्तमाने संस्थानमिदं शिमला नगरे वर्तते। अस्मिन् केन्द्रे शान्ति युद्धयोः प्रशिक्षणम् अपि प्रददति। सैन्य प्रशिक्षण कमान इत्यस्य संस्थानस्य सम्पूर्णे भारते 34 प्रशिक्षण केन्द्राणि सन्ति। मालदीव देशे मोहम्मद मोइजू इत्येषः नूतन राष्ट्रपतित्वेन चितः। सः द्वितीये अन्तिम चरणात्मके च मतदाने निवर्तमानं राष्ट्रपतिं मोहम्मद सोलिह इत्यमुं पराजितवान्। ध्येयं यत् इति श्री मोइजू इत्येषः 54% मतानि प्राप्तवान्। यद्यपि एमडीपी इत्येतस्य दलस्य निवर्तमानः राष्ट्रपतिः सोलिह प्रायः 48% एव मतं प्राप्तवान्। निर्वाचनायोगस्य वेबफलकानुसारं श्रीसोलिह निर्वाचने स्वीयं पराजयं स्वीकृत्य एक्स इत्याख्ये सन्देशपटले श्रीमोइजू इत्यमुं विजयार्थं वर्धापितवान्। प्रधानमन्त्रिणा श्रीनरेन्द्रमोदिना डॉ मोहम्मद मोइजू इत्यस्मै मालदीव राष्ट्रपतिः रूपेण नवनिर्वाचिते शुभकामनाः प्रदत्तम्। एकस्मिन् सामाजिक अन्तर्जाल सन्देशे श्रीमोदिः प्रोदीरितवान् यत् भारतः मालदीव साकं सम्बन्ध प्रगाढाय हिन्द महासागरे समग्र सहयोगान् सुदृढीकरणे संकल्पितः वर्तते। खादी ग्रामोद्योगेन अद्य मुंबई नगरस्य जुहू इत्याख्ये समुद्रतटे स्वच्छताभियानं विहितम्। अवसरेऽस्मिन् सूक्ष्म एवं लघुद्योग मन्त्रालयस्य केन्द्रीय मन्त्री नारायण राणे मुख्यातिथित्वेन उपस्थितः आसीत्। श्री राणे वर्येण प्रतिभागिनां सम्बोधयन् प्रोक्तवान् यत् अभियानमिदं महात्मा गान्धिनः शिक्षामालक्ष्य वर्तते। अस्य उद्देश्यं स्वच्छं स्वस्थं च वातावरणं विनिर्माणस्य प्रत्येकस्य नागरिकस्य कर्तव्यः वर्तते। राजस्थाने आगामि विधानसभा निर्वाचनाय निर्वाचनायोगेन सर्वाः सज्जाः सम्पूरिताः। निर्वाचनायोगेन सम्पूर्णदलस्य कार्यक्रमालक्ष्य सन्तोषः प्रकटितः। अवसरेऽस्मिन् मुख्य निर्वाचन अधिकारी राजीव कुमारः युवभिः महिला मतदातृभिः च अधिकाधिकरूपेण मतदानाय प्रार्थनां विहितवान्। भारतेन चीनस्य हांगचौ इत्यत्र आयोजितायाम् अष्टमे दिवसे एशियाई क्रीडा प्रतिस्पर्धायां 3 स्वर्णपदकानि 2 रजतपदके 2 कांस्यपदके च समेत्य 6 पदकानि अद्य विजितानि। 13 स्वर्णपदकानि 16 रजतपदकानि 16 कांस्यपदकानि समेत्य 45 पदकैः सह भारतः पदकतालिकायां चतुर्थे स्थाने विराजते। मुख्यवार्ताः पुनरेकवारम्। प्रधानमन्त्रिणा श्रीनरेन्द्रमोदिना अद्य देशे आयोजिते स्वच्छता हि सेवा महाभियानस्य नेतृत्वम् अकरोत्। प्रधानमन्त्री श्रीनरेन्द्रमोदी अद्य मध्याह्ने तेलंगानाराज्यस्य महबूबनगरे सम्प्राप्तः। असौ तत्र 500,13,000+ रूप्यकाणां विनिर्मितानां विविधपरियोजनानां आधारशिलां स्थापिताः इति।